ध्रुवस्तुतिः। ध्रुव उवाच योऽन्तः प्रविश्य मम वाचमिमाम् प्रसुप्ताम् सञ्जीवयत्यखिलशक्तिधरस्वधाम्ना अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम् एकस्त्वमेव भगवन्निदमात्मशक्त्या मायाख्ययोरुगुणया महदाद्यशेषम् सृष्ट्वानुविश्य पुरुषस्तदसद्गुणेषु नानेव दारुषु विभावसुवद्विभासि त्वद्दत्तया वयुनयेदमचष्ट विश्वम् सुप्त प्रबुद्ध इव नाथ भवत्प्रपन्नः तस्यापवर्ग्य शरणम् तव पादमूलम् विस्मर्यते कृतविदा कथमार्तबन्धो नूनम् विमुष्टमतयस्तव मायया ते ये त्वाम् भवाप्यय विमोक्षणमन्यहेतोः अर्चन्ति कल्पकतरुम् कुणपोपभोग्यम् इच्छन्ति यत्स्पर्शजम् निरयेऽपि नृणाम् या निर्वृतिस्तनुभृताम् तव पादपद्मध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् सा ब्रह्मणि स्वमहिमन्यपि नाथ माभूत् किम् त्वन्तकासि लुलितात् पतताम् विमानात् भक्तिम् मुहुः प्रवहताम् त्वयि मे प्रसङ्गो भूयादनन्तमहतामलाशयानाम् येनाञ्जसोल्बणमुरुव्यसनम् भवाब्धिम् नेष्ये भवद्गुणकथामृतपानमत्तः तेन स्मरन्त्यतितराम् प्रियमीशमर्त्यम् ये चान्वदस्सुतसुहृद्गृहवित्तदाराः ये त्वब्जनाभवदीयपदारविन्दः सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः तिर्यम् नगद्विजसरीसृपदेव दैत्य मर्त्यादिभिः परिचितम् सदसद्विशेषम् रूपम् स्थविष्ठमजते महदाद्यनेकम् नातः परम् परमवेद्मि न यत्र वादः कल्पान्त एतदखिलम् जठरेण गृह्णन् शेते पुमान् स्वदृगनन्तसखस्तदङ्के यन्नाभिसिन्धुरुहकाञ्चन लोकपद्मगर्भेद्युमान् भगवते प्रणतोऽस्मि तस्मै त्वम् नित्यमुक्तपरिशुद्ध विबुद्ध आत्मा कूटस्थ आदिपुरुषो भगवांस्त्र्यधीशः यद्बुद्ध्यवस्थितिमखण्डितया स्वदृष्ट्या दृष्टास्थितावधिमखो व्यतिरिक्त आस्से यस्मिन्विरुद्धगतयो ह्यनिशम् पतन्ति विद्यादयो विविधशक्तय आनुपूर्व्यात् तद्ब्रह्म विश्वभवमेकमनन्तमाद्यम् आनन्दमात्रमविकारमहम् प्रपद्ये सत्याशिषो हि भगवंस्तव पादपद्मम् आशीस्तथानुभजतः पुरुषार्थमूर्तेः अप्येव मर्य भगवान् परिपाति दीनान् वाश्रेव वत्सकमनुग्रहकातरोऽस्मान्।